इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। बिहार राज्ये विधानसभा निर्वाचनस्य प्रथम चरणाय मतदानं श्वः भविष्यति। अद्य प्रातः उत्तर प्रदेशस्य मिर्जापुरस्य चुनार रेलस्थानके षट् तीर्थयात्रिणां कालका हावड़ा मेल रेलयान दुर्घटनायां मृत्युः अभवत्। विदेशमंत्री डॉ एस जयशंकरः अवदत् यत् भारत जापान देशयोः सहभागित्वेन भारत प्रशांत क्षेत्रीय सामरिक स्थिरतां वर्धयति। अपि च गुरुनानक देवस्य जन्म जयन्त्यवसरे गुरुपूरव इत्युत्सवः देवदीपावली पर्वः च आराष्ट्रे आसंसारे च सश्रद्धया भक्तिभावनया च परिपाल्यते। अथ वार्ताः विस्तरेण। बिहार राज्ये विधानसभा निर्वाचनस्य प्रथम चरणाय मतदानं श्वः अष्टादश मण्डलेषु एकविंशत्यधिकैकशत निर्वाचन क्षेत्रेषु मतदानं भविष्यति। स्वतन्त्रं निष्पक्षं शान्तियुतञ्च मतदानं सुनिश्चेतुं विस्तृत सुरक्षा व्यवस्था कृतास्ति। पटना, वैशाली, नालन्दा, भोजपुर, मुंगेर, सारण, सिवान, गोपालगंज, मुजफ्फरपुर इत्यादीनाम् अष्टादश मण्डलानां विधानसभा क्षेत्रेषु मतदानं श्वः भविष्यति। मतदान प्रक्रिया निरीक्षणार्थं सर्वेषु एकचत्वारिंशोत्तर त्रिशताधिक पञ्चचत्वारिंशत् सहस्र मतदान केन्द्रेभ्यः वेबकास्टिंग भविष्यति। सर्वेषु मतदान केन्द्रेषु राज्यारक्षकैः सह केन्द्रीय सशस्त्र अर्धसैनिक बलानि अपि नियुक्तानि सन्ति। महिला शक्तिकरणं प्रवर्धयितुं 26,900 यावत् महिला नियन्त्रण मतदान केन्द्राणि, 70,000 यावत् दिव्यांग कार्मिक नियन्त्रित मतदान केन्द्राणि च स्थापितानि सन्ति। मतदानं प्रातः 7 वादनादारभ्य सायं 6 वादनपर्यन्तं भविष्यति। तत्रैव सुरक्षायाः कारणात् सिमरी, बख्तियारपुर, महिषी, तारंगपुर, तारापुर, मुंगेर, जमालपुर, सूर्यगढ़ा विधानसभा क्षेत्राणां 56 मतदान केन्द्रेषु च मतदान समयः 5 वादनं यावदस्ति। एनडीए गठबंधने जेडीयू सर्वाधिकेषु 57 आसनेषु, तदनन्तरं भाजपेति दलं 48 आसनेषु, एलजेपी दलं 14 आसनेषु तथा राष्ट्रिय लोकमोर्चा दलं च द्वयोः आसनयोः कृते स्पर्धिष्यति। महागठबंधने आरजेडी दलं सर्वाधिकेषु 73 आसनेषु, तदनन्तरं प्रथमे चरणे कांग्रेस दलस्य 24 प्रत्याशिनः, सीपीआईएमएल दलस्य 14 सदस्याः नैर्वाचनिक समराङ्गणे सन्ति। बिहार निर्वाचन विधानसभा निर्वाचनस्य प्रथमे चरणे उपमुख्यमन्त्रिणः सम्राट चौधरी इत्यस्य, विजय कुमार सिन्हायाः सहैव प्रमुखानां राजनैतिक दलानां नेतृणां राजनैतिक भविष्यस्य निर्णयः भविष्यति। अस्मिन् चरणे राज्यसर्वकारस्य प्रायः 16 मन्त्रिणां राजनैतिक भाग्यस्य निर्णयोऽपि भविष्यति। अद्य प्रातः उत्तरप्रदेशस्य मिर्जापुरस्य चुनार रेलस्थानके 6 तीर्थयात्रिणां कालका हावड़ा मेल रेलयान दुर्घटनायां मृत्युः अभवत्। मण्डलाधिकारिणा पवनकुमार गंगवारेण उक्तं यत् कार्तिक पूर्णिमायाः पवित्र स्नानार्थं तीर्थयात्रिणः वहन्ति गोमोह प्रयागराज बरवाडीह इति रेलयानं सोनभद्रतः प्रातः 7:45 प्लेटफॉर्म संख्या 4 इत्यत्र आगतमासीत्। मुख्यमंत्री योगी आदित्यनाथः, केन्द्रीय मंत्री तथा स्थानीय सांसदः अनुप्रिया पटेलः च घटनायां शोकं प्रकटितवन्तौ। जनपदस्य अधिकारिभ्यः तत्क्षणमेव तत्र गन्तुं सहायोद्धारकार्यं तीव्रं कर्तुं व्रणितानां समुचित चिकित्सां सुनिश्चेतुं च निर्देशं प्रदत्तवती। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। विदेशमन्त्री डॉक्टर एस जयशंकरः अद्य अवदत् यत् भारत जापान देशयोः सहभागित्वेन भारत प्रशान्त क्षेत्रीय सामरिक स्थिरतां वर्धयति। नवदिल्ल्यां अष्टमं भारत जापान हिन्द प्रशान्त मञ्चं सम्बोधयन् डॉक्टर जयशंकरः अवदत् यत् भारत जापान सहभागित्वेन शक्तेः लाभं आपूर्ति श्रृंखलायाः सुदृढीकरणं, कृत्रिमबुद्धि, सेमीकंडक्टर्स इति अर्धचालक यन्त्रं, महत्वपूर्ण खनिज, स्वच्छ ऊर्जा, अंतरिक्षं चेत्येतेषु निवेशेषु ध्यानं केन्द्रितं भवेदिति। गुरुनानक देवस्य जन्म जयन्त्यवसरे गुरुपूरव इत्युत्सवः आराष्ट्रे आसंसारे च सश्रद्धया भक्तिभावनया च परिपाल्यते। गुरुनानकवर्यः सिक्खपन्थस्य संस्थापकः आसीत्। प्रकाशोत्सवः गुरुपूरवः वा सिक्खसमुदायीजनानां कृते महत्वपूर्णतमः दिवसः भवति। एषः वर्षः गुरुनानकदेववर्यस्य षड्पञ्चाशदुत्तरपञ्चशततमः जन्मोत्सवः अस्ति। दिवसोऽयं कार्तिकपूर्णिमायाः अपि अस्ति। देशस्य विभिन्नेषु भागेषु अस्यापि धार्मिकं महत्त्वं वर्तते। जनाश्च गंगादिषु पवित्रासु नदीषु अद्य स्नानं कुर्वन्ति। इदं दिनं चित्रकूट वाराणस्यादिषु देवदीपावलित्वेन अपि परिपाल्यते। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी च देवदीपावलिप्रकाशोत्सवस्य च अवसरे सर्वेभ्यः देशवासिभ्यः शुभकामनाः प्रदत्तवन्तौ। भाजपेति दलस्य वरिष्ठः नेता तथा केन्द्रीयमन्त्री किरेन रिजिजुवर्यः कांग्रेसदलस्य नेत्रा राहुलेन कृत भाजपा निर्वाचनायोगयोः उपरि मतचौर्यस्य आरोपस्य विषये निन्दामकरोत्। अद्य नवदिल्ल्यां वार्ताहरान् सम्बोधयन् श्रीरिजिजुः उक्तवान् यत् यदा परिणामः कांग्रेसदलस्य पक्षे नागच्छति तदा राहुलः निर्वाचनायोगं तथा ईवीएम इत्युभौ आरोपयति।
कोई भी घटना ऐसा है जिसको कांग्रेस पार्टी को लगता है कि अपील करना चाहिए तो इलेक्शन कमीशन में अपील कर सकते हैं। वहां न्याय नहीं मिलता है उसको लगता है तो अदालत जा सकता है। वो अदालत को विश्वास नहीं करते हैं, सिस्टम को नहीं मानते हैं, खुद का विफलता को ईवीएम और इलेक्शन कमीशन के सर में फोड़ते रहते हैं। ये कोई बात नहीं हुआ।
सः अवदत् यत् मतदातृ सूच्यां कस्यापि त्रुटि विषये कांग्रेस दलं निर्वाचनायोगं प्रति परिवादं कर्तव्यम्। वाणिज्योद्योग मन्त्री पीयूष गोयलः अद्य ऑकलैंड नगरे भारत न्यूजीलैंड देशयोः वाणिज्य मञ्चे स्वस्य न्यूजीलैंड देशस्य समकक्षीयेण टॉड मैकले इत्यनेन सह मिलितवान्। सभायां श्रीगोयलः उभयोः राष्ट्रयोः मध्ये समुद्रीयं रक्षा, शिक्षा, क्रीडा, पर्यटनम् इत्यादीनां सहकारस्य क्षेत्राणां विषये अवधानं प्रदत्तवान्। श्रीगोयलः न्यूजीलैंड देशस्य प्रधानमन्त्रिणा क्रिस्टोफर लक्सन इत्यनेन, श्री मैकले इत्यनेन च सह भारतीय प्रवासिनः अपि सम्बोधितवान्। प्रवासिनः सम्बोधयन् सः अवदत् यत् सर्वकारः करस्य भारं न्यूनीकृत्य व्यापारस्य सुगमतां प्रवर्धयितुं कार्यं कुर्वन् अस्ति। सः अवदत् यत् भारतम् आकर्षकं गन्तव्यं कर्तुं प्रयत्नाः कृताः सन्ति। फिलीपींस देशे न्यूनातिन्यूनं 66 जनाः मृताः, लक्षशः जनाः स्वगृहात् पलायिताः। अस्य वर्षस्य चक्रवातेषु एकः प्रबलः चक्रवातः देशे प्रावर्तत। स्थानीयतया टीनो इति नाम्नाख्यातः कलमेगी चक्रवातः ह्यः प्रातःकाले भूम्यां प्राप्य दुर्बलः अभवत्, परञ्च 30 किलोमीटर प्रतिहोरायाः वेगेन वायु प्रवहति। देशस्य राष्ट्रिय आपत् संकट न्यूनीकरण तथा प्रबन्धन परिषदा अनुमन्यत यत् सूचितानां मृतेषु 49 जनाः सेबु प्रदेशे आसन् इति वार्ताः।